इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य अबूजानगरे नाइजीरिया देशस्य राष्ट्रपतिना बोला अहमद टिनुवु इत्यमुना साकं मन्त्रणां करिष्यति। श्रीमोदी नाइजीरियायाः द्विदिवसीय यात्रायै ह्यः रात्रौ अबूजानगरं सम्प्राप्तवान्। विगतेषु सप्तदशसु वर्षेषु कस्यापि प्रधानमन्त्रिणः भारतीयस्य प्रथमा नाइजीरिया यात्रा विद्यते। प्रधानमन्त्री मोदी राष्ट्रपतिः टिनुवु इत्येषः च नाइजीरिया भारत देशयोः मध्ये रणनीतिक सहभागित्वस्य समीक्षां समाचरिष्यतः अथ च द्विपक्षीय सम्बन्धान् अग्रे वर्धयितुं विविधेषु अवसरेषु चर्चां करिष्यतः। वार्तानन्तरं अनेकेषु सन्धिपत्रेषु हस्ताक्षरस्य सम्भावना अपि वर्तते। एतदनन्तरं प्रधानमन्त्री नाइजीरियायां भारतीय प्रवासिभ्यः सम्बोधनम् अपि करिष्यतः। तदनुश्रः श्रीमोदी राष्ट्रपतिना लुईस इनासियो लूला दा सिल्वा इत्यनेन आयोक्ष्यमाणे G20 शिखर सम्मेलने भागग्रहणाय द्विदिवसीय यात्रार्थं ब्राजील देशस्य रियो डी जेनेरियो नगरं प्रति यास्यति। ध्यातव्यमस्ति यत् भारतं ब्राजील दक्षिणाफ्रिका देशाभ्यां सह G20 इत्येतस्य शिखर सम्मेलनस्य भागम् अस्ति। अपि च प्रचल्यमाणस्य G20 शिखर सम्मेलनस्य चर्चासु सक्रियत्वेन योगदानं प्रददाति। कार्यक्रमावधौ प्रधानमन्त्री विभिन्नेषु वैश्विक प्रसंगेषु भारतस्य स्थितिं प्रकटयिष्यति। भारतेन आयोजिते वॉइस ऑफ दि ग्लोबल साउथ इत्यस्मिन् शिखर सम्मेलने अपि चर्चां विधास्यति। तृतीये अन्तिमे च यात्रायाः सोपाने प्रधानमन्त्री अस्य मासस्य 9-21 दिनांकं यावत् गुआना देशाय यास्यति। भारतेन भूयोपि 25,400 मेट्रिक टनमितं यावत् खाद्यपदार्थाः खाद्यान्नानि च सूरीनामदेशस्य सामाजिक कल्याण कार्यक्रमाय प्रेषितानि। भारतस्य सूरीनामदेशेन सह घनिष्ठः मैत्रीपूर्णः मधुरश्च सम्बन्धो विद्यते, यो हि शताधिकवर्षेभ्यः भारतीय प्रवासीनाम् आगमनेन सांस्कृतिकजनानां मध्ये जातेन सम्पर्कद्वारा सुदृढो जातः। 67-19 वर्षे भारत सूरीनामयोः मध्ये राजनैकसम्बन्धानां स्थापनानन्तरं नैकासाम् उच्चस्तरीयाणां यात्राणाम् आदानप्रदानमपि जातं। तदनु 2000 वर्षे नवदिल्ल्यां सूरीनामदूतावासः अपि उद्घाटितः। वायुगुणवत्ता प्रबन्धनायोगेन ग्रेडेड रेस्पॉन्स एक्शन प्लान इत्येतं नियमं क्रियान्वितं कर्तुं सम्बद्धाधिकारिभ्यः राष्ट्रिय राजधानी क्षेत्रेषु वायुप्रदूषणस्य सर्वाणि चिह्नितानि स्थलानि प्राथमिकतां प्रदातुं निर्दिष्टानि। आयोगेन राष्ट्रिय राजधानी क्षेत्रे नियमान् काठिन्येन परिपालयितुं ह्यः नवदिल्ल्याम् एकं समीक्षोपवेशनं समनुष्ठितम्। नवनिर्वाचितेन अमेरिकादेशीयेन राष्ट्रपतिना डोनाल्ड ट्रम्प इत्यनेन क्रिस राइट इत्येषः स्वरुच्यनुसारं ऊर्जाविभागप्रमुखः नियुक्तः। राइट इत्येषः लिबर्टी एनर्जी इत्येतस्य प्रमुखकार्यकारी अधिकारी अपि च संस्थापको विद्यते, यो हि जीवाश्म ईंधनस्य उपयोगस्य प्रबल समर्थको अपि वर्तते। महिलानां एशियाई चैंपियंस ट्रॉफी इत्येतस्यां हॉकी इति प्रतिस्पर्धायां अद्य बिहारस्य राजगीर हॉकी क्रीडांगणे भारतम् अन्तिमायाः सामूहिक प्रतिस्पर्धायाः द्वन्द्वे जापान दलेन साकं क्रीडिष्यति। अस्याः प्रतिस्पर्धायाः प्रसारणं पादोन पञ्चवादने सायंकाले भविष्यति। श्रोतारः संस्कृतजगता सम्बद्धैः विभिन्नैः क्रियाकलापैः सम्वलितस्य संस्कृत साप्ताहिकी इति विशिष्ट संस्कृत कार्यक्रमस्य प्रसारणम् आकाशवाण्याः FM गोल्ड प्रवाहिकातः अद्य मध्याह्ने 1:30 वादनतो भविष्यति। कृपया शृण्वन्तु इति वार्ताः।